इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। केन्द्रीय वित्तमन्त्रिणा निर्मला सीतारमणेन उक्तं यत् उपयुक्तैः समये नीति निर्णयैः आर्थिक सुधारैश्च भारतदेशः कोविड संकटात् बहिरागतः। केन्द्र सर्वकारेण अग्रिम आदेश पर्यन्तं पलाण्डु निर्यात प्रतिबन्धः विस्तारितो वर्तते। जम्मू कश्मीरे सुरक्षाबलेन श्रीनगरे निषिद्ध आतंकवादी संघटनस्य जैशे मोहम्मद इत्यस्य आतंकवादी गतिविधेः मूलोत्पाटनं चतुर्णाम् आततायिनां निगडनं च विहितम्। मास्को नगरे आतंकवादिनाम् आक्रमणे मृतकानां संख्या 33-13 अभवत्। अपि च फीफा इत्यनेन जापान उत्तर कोरिया देशयोः मध्ये मंगलवासरे प्योंगयांग नगरे संभावित निर्णायक द्वन्द्वं निरस्तीकृतम्। केन्द्रीय वित्तमन्त्रिणा निर्मला सीतारमणेन उक्तं यत् उपयुक्तैः समये नीति निर्णयैः आर्थिक सुधारैश्च भारतदेशः कोविड संकटात् बहिरागतः। अद्य बेंगलुरुनगरे विचारक मञ्चस्य सत्रं सम्बोधयन्ती सा अवदत् यत् अद्य वैश्विक समुदायः भारतस्य आपत्कालीन भूमिकायाः कृते द्रुतगत्यां वर्धमानायाः आर्थ अर्थव्यवस्थायाः कृते च प्रशंसां कुर्वन् वर्तते। 20-2000 2020-2000 यावत् कोविड महामारी ततः परं रूस यूक्रेन देशयोः युद्धेन सम्पूर्णे विश्वे आर्थिक संकटः अभवत्। परञ्च भारतेन निर्धनेभ्यः खाद्यानं प्रदत्तम्, एमएसएमई संस्थानां कृते सहयोगः प्रदत्तः, आर्थिक सुधारेण व्यवस्था पारदर्शिता, व्यापारे सुगमता च आगता। केन्द्र सर्वकारेण अग्रिम आदेश पर्यन्तं पलाण्डु निर्यात प्रतिबन्धः विस्तारितो वर्तते। अन्तर्देशीय उपलब्धतां वर्धयितुं पलाण्डु मूल्यस्य नियन्त्रणाय च एषः निर्णयः कृतः अस्ति। विदेश व्यापार महानिदेशालयेन अधिसूचनायाम् उक्तं यत् पलाण्डु निर्यात प्रतिबन्धः ऐषमः मार्च मासस्य 31 यावत् स्थापितः आसीत्, अधुना अग्रिम आदेश पर्यन्तं तस्य विस्तारः क्रियते। गतवर्षस्य डिसेम्बर मासे सर्वकारेण पलाण्डु निर्याते प्रतिबन्धः कृतः आसीत्, परन्तु मित्रदेशेभ्यः पलाण्डु निर्यातस्य अनुमतिः प्रकारणान्तरेण कृता वर्तते। जम्मू कश्मीरे सुरक्षाबलेन श्रीनगरे चतुर्णाम् आतंकवादीनां सहकारिणां निगडनं कृत्वा निषिद्ध आतंकवादी संघटनेन जैशे मोहम्मद इत्यनेन सह सम्बद्ध प्रमुख आतंकवादी गतिविधेः मूलोत्पाटनं कृतमस्ति। विशिष्ट सूचनाया कार्यं कृत्वा नावगाम पुलिस संस्थानस्य अधिकारक्षेत्रे केनिहामा क्षेत्रे श्रीनगर आरक्षिदलं 50 राष्ट्रीय राइफल्स वैली क्यूआरटी 29 बटालियन सीमा सुरक्षाबलैश्च समाविष्टं संयुक्तं चलवाहन निरीक्षण स्थलं स्थापितमासीत्। निरीक्षणकाले संयुक्तपक्षेण एकं यानम् अवरुध्य चत्वारः आतंकवादिनः गृहीताः। प्रारम्भिक अन्वेषणस्य समये ज्ञातं यत् गृहीताः आतंकवादिनः निषिद्ध आतंकवादी संघटनेन जैशे मोहम्मद इत्यनेन सह सम्बद्धाः सन्ति। तेषां विरुद्धं नावगामस्य आरक्षिस्थात्रे प्रासंगिक खण्डानाम् अन्तर्गतं प्रकरणं पञ्जीकृतमस्ति, अग्रे अन्वेषणं प्रचलति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। मास्को नगरस्य क्रोकस नगरभवने आतंकवादिनाम् आक्रमणे मृतकानां संख्या 33-13 अभवत्। रूसदेशेन अन्वेषणसमितेः उद्धरणं कृत्वा रूसी राज्यमाध्यमेन तास इत्यनेन उक्तं यत् अन्वेषणं प्रचलति, संगीतभवनात् मलिनावशेषस्य च निष्कासनं प्रचलति। रूसस्य स्वास्थ्यमन्त्रालयस्य अनुसारं 47-100 जनाः घातिताः अभवन्। रूसदेशेन उक्तं यत् चतुर्भिः भुशुण्डीधारकैः सह 11 जनाः गृहीताः। अत्र भारते रूस दूतावासेन आतंकवादीनां आक्रमणस्य पीडितानां परिवारेभ्यः शोकं प्रकटयितुं जनानां कृते अन्तर्जालीय शोकपुस्तकं आरब्धम् अस्ति। अस्मिन् अन्तर्जाल पुस्तके जनाः स्वस्य शोकसन्देशं वा मृतकं प्रति स्वस्य समर्थनं सहानुभूतिं च टिप्पणी विभागे लिखितुं शक्नुवन्ति। क्राकस नगरस्य सभागृहे आतंकवादीनां आक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट खोरासान इति आतंकवादी संघटनेन स्वीकृतं वर्तते। रूसस्य सुरक्षा सेवायाः कथनानुसारं आक्रमणकारिणः युक्रेन देशसम्बद्धाः आसन्, अतः ते समीपस्थं देशं युक्रेन देशं प्रति पलायनं कुर्वन्तः आसन्। युक्रेन देशेन आक्रमणे स्वस्य संलग्नतायाः आरोपाः लज्जाजनकाः इति वर्णिताः। इदानीं अमेरिका देशेन उक्तं यत् इस्लामिक स्टेट खोरासान इत्यस्य कथनं विश्वसनीयमस्ति तथा च युक्रेन देशः अस्य आक्रमणस्य उत्तरदायी नास्ति इति विश्वसिति। पूर्व भारतीय वायुसेना प्रमुखः आर भदौरिया अत आन्ध्रप्रदेशस्य योजना श्रमिकारेतु कांग्रेस पार्टी वाईएसआरपीसी इति दलस्य पूर्व सांसदः वरप्रसाद राव वेलागालपल्ली अद्य नवी दिल्ली नगरे भाजपा महासचिव विनोद तावडेवर्यस्य केन्द्रीय मन्त्रिणः अनुराग सिंह ठाकुरस्य च उपस्थितौ भारतीय जनता पक्षे सम्मिलितवन्तौ। पाकिस्तानस्य विदेशमन्त्री मोहम्मद इशाक डारः अवदत् यत् तस्य देशः भारतेन सह व्यापार सम्बन्धं पुनः संस्थापनाय गभीरेण विचारयिष्यति यत् ऊनविंशत्यधिक द्विसहस्रतम वर्षस्य अगस्त मासात् एव स्थगितमासीत्। श्रीडारः लंडन नगरे वार्ताहराणां सम्मेलने अवदत् यत् पाकिस्तान देशीयाः उद्यमिनः भारतेन सह व्यापारं पुनरावर्तयितुम् इच्छन्ति। तस्य वचनेन भारतस्य प्रति पाकिस्तानस्य कूटनीतिक दृष्टिकोणे संभाव्य परिवर्तनस्य संकेतो दृश्यते। ध्येयं वर्तते यत् भारत सर्वकारेण 70+300 इति अनुच्छेदस्य अपसारणानन्तरं जम्मू कश्मीरं केन्द्रशासित राज्ययोः रूपे विभजनानन्तरं च इस्लामाबादेन नवदिल्ल्या सह राजनैतिक सम्बन्धाः न्यूनीकृताः आसन्। नवदिल्ल्या पाकिस्तान देशं प्रति स्पष्टीकृतं यत् जम्मू कश्मीर लड्डाकयोः सम्पूर्ण केन्द्रशासित प्रभागाः भारतस्य अभिन्नाः अविच्छिन्नाः च भागाः सन्ति। नवदिल्ल्या एतदपि प्रतिपादितं यत् भारत सर्वकारेण जम्मू कश्मीरस्य केन्द्रीय क्षेत्रे सामाजिक आर्थिक विकासं सुशासनञ्च सुनिश्चेतुं क्रियमाणाः संवैधानिक निर्णयाः उपायाश्च अस्माकं निज विषयाः सन्ति। अद्य विश्व क्षयरोग दिवसः वर्तते। यदा प्रथमवारं क्षयरोग जनक जीवाणुः आविष्कृतः तस्य दिवसस्य वार्षिकोत्सवः मार्च मासस्य 24 दिनांके भवति। प्रतिवर्षम् अस्मिन् दिने सम्पूर्णविश्वे क्षयरोग दिवसः आचर्यते यस्य उद्देश्यं क्षयरोगः तस्य प्रसारं कथं निवारयितुं शक्यते इति च जनजागरूकतायाः वर्धनम्। क्षयरोगः माइकोबैक्टीरियम ट्यूबरक्युलोसिस जीवाणुजन्यः तथा च शरीरे फुफ्फुसाः सर्वाधिकं प्रभाविताः अङ्गाः सन्ति। क्षयरोगः शरीरस्य अन्येषु भागेषु यथा वृक्कं मेरुदण्डं मस्तिष्कञ्च प्रभावितुं कर्तुं शक्यते। दुर्बल प्रतिरक्षातन्त्रं मधुमेहः कुपोषणं तम्बाकुपयोगः च इत्यादयः कारकाः क्षयरोगं वर्धयितुं शक्नुवन्ति। 2020+1800 वर्षे अस्मिन् दिने डॉ रॉबर्ट कोच इत्यनेन क्षयरोगस्य उत्तरदायी जीवाणुः माइकोबैक्टीरियम ट्यूबरक्युलोसिस इति चिह्नितः। प्रथमः विश्व क्षयरोग दिवसः 83+1900 वर्षे आधिकारिकतया आचरितः। ततः परम् अयं वार्षिकः कार्यक्रमः अभवत्। आईपीएल इत्यस्य क्रिकेट मालिका प्रतिस्पर्धायां राजस्थान रॉयल्स इत्यनेन दलेन लखनऊ सुपर जायंट्स इत्येतं दलं विरुध्य चतुस्तोभानां हानिपुरस्सरं 77+100 धावनांकानां लक्ष्यं समुपस्थापितम्। फीफा इति अन्तराष्ट्रिय पादकन्दुक महासंघेन जापान उत्तरकोरिया देशयोः मध्ये मंगलवासरे प्योंगयांग नगरे संभावित निर्णायक द्वन्द्वं निरस्तीकृतम् इति वार्ताः।